ओम नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। श्रीशुक उवाच, ततस्यानुदिनं धर्मः सत्यं शौचं क्षमादया, कालेन बलिना राजन्नङ्क्षत्यायुर्बलं स्मृतिः, वित्तमेव कलौन्द्रीणां जन्माचारगुणोदयः, धर्मन्यायव्यवस्थायां कारणं बलमेव हि, दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके, स्त्रीत्वे पुंस्त्वे च हिरतिर्विप्रत्वे सूत्रमेव हि, लिङ्गमेवाश्रमाख्यातामन्योन्यापत्तिकारणम्, अवृत्त्यान्यायदौर्बल्यं पाण्डित्ये चापलं वचः, अनाध्यतैवासाधुत्वे साधुत्वे दम्भ एव तु, स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम्, दूरे वार्ययनं तीर्थं लावण्यं केशधारणम्, उदरं भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि, दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम्, एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले, ब्रह्मविट्क्षत्रशूद्राणां यो बलिः भविता नृपः, प्रजा हि लुब्धैराजन्यैर्निर्घृणैर्दस्युधर्मभिः, आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननं, शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः, अनावृष्ट्या विनङ्क्षन्ति दुर्भिक्षकरपीडिताः, शीतवातातपप्राभृट् हिमैरन्योन्यतः प्रजाः, क्षुत्रिभ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया, त्रिंशद्विंशतिवर्षाणि परमायुः कलौन्द्रिणां, क्षीयमाणेषु देहेषु देहिनां कलिदोषतः, वर्णाश्रमवतां धर्मे नष्टे वेदपसेन्द्रिणां, पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु, चौर्यानृतवृथा हिंसा नानावृत्तिषु वैदृषु, शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु, गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु, अणुप्रायास्वौषधीषु शमीप्रायेषु स्थाष्णुषु, विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु, इत्थं कलौ गतप्राये जनेतु खरधर्मिणि, धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति, चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः, धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये, शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः, भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति, अश्वमाशुकमारुह्य देवदत्तं जगत्पतिः, असिना साधुदमनमष्टैश्वर्यगुणान्वितः, विचरन्नासुनाक्षोण्यां हयेना प्रतिमद्युतिः, नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति, अथ तेषां भविष्यन्ति मनांसि विशदानि वै, वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम्, पौरजानपदानां वै हतेष्वखिलदस्युषु, तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति, वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते, यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः, कृतं भविष्यति तदा प्रजासूतिश्च सात्विकी, यदा चन्द्रस्य सूर्यश्च तथा तिष्य बृहस्पति, एकरासौ समेष्यन्ति तदा भवति तत्कृतं, येति तावर्तमाना ये भविष्यन्ति च पार्थिवाः, ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः, आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम्, एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम्, सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि, तयोस्तु मध्ये नक्षत्रं दृश्यते यत् समं निशि, तेनैतऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणां, ते त्वदीये द्विजाः काले अधुना चाश्रितामघाः, विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवङ्गतः, तदा विशत्कलिर्लोकं पापे यद्रमते जनः, यावत्सपादपद्माभ्यां स्पृशन्नास्ते रमापतिः, तावत्कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत्, यदा देवर्षयः सप्तमघासु विचरन्ति हि तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः, यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः, तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति, यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि, प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः, दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतं, भविष्यति यदा नृणां मन आत्मप्रकाशकम्, इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि, तथा विक्षूद्रविप्राणां तास्ताज्ञेया युगे युगे, एतेषां नामलिङ्गानां पुरुषाणां महात्मनां कथा मात्रा वशिष्ठानां कीर्तिरेव स्थिता भुवि देवापि सन्तनोर्भ्राता मरुश्चेक्ष्वा कुवंशजः कलापग्राम आसाते महायोगबलान्वितौ ताविहैत्यकलेरन्ते वासुदेवानुशिक्षितौ वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः कृतं त्रेता द्वापरं च कलिष्येति चतुर्युगम् अनेन क्रमयोगेन भुवि प्राणिषु वर्तते राजन्नेते मया प्रोक्ता नरदेवास्तथा परे भूमौ ममत्वं कृत्वान्ते हित्वे मां निधनं गताः कृमिविद्भस्मसंज्ञान्ते राजनां नोऽपि यस्य च भूतधृक् तत्कृते स्वार्थं किं वेद निरयो यतः कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा तेजोवन्नमयं कायं गृहीत्वात्मतया बुधाः महीं ममतया चोभौ हित्वान्ते दर्शनं गताः ये भूपतयो राजन् भुञ्जन्ति भुवमोजसा कालेन ते कृताः सर्वे कथामात्राः कथासु च ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।